एस रेडियो नेपाल सम्प्रति समाचार श्रूयन्ता प्रवाचक उपेन्द्र दाहाल राष्ट्रिय सभाया ह्यस्तनोपवेशेन एकाशीत्युत्तर द्विसहस्रतम विक्रम वर्षीयम् अभौतिक सांस्कृतिक सम्पत् संरक्षण विधेयकम् पारितीकृतम् वर्तते। विधेयकम् आधृत्य विहिते विमर्शने उत्थापितान् प्रश्नान् उत्तरयन् संस्कृति पर्यटन नागरिकोड्डयन मन्त्री खड्ग राजा पौडेल विधेयकेन समुदायस्तरेषु प्रचलने विद्यमानस्य परम्परागतस्य ज्ञानस्य सांस्कृतिक सम्पदश्च संरक्षणस्य उत्तरसन्ततियै हस्तान्तरणस्य च अधिकाराः सुनिश्चिताः विधास्यन्ते इति अवोचत। विधेयकम् आदृत्य विहिते विमर्शने सांसदाः नेपाल सर्वकारः दशोत्तर द्विसहस्रतम ख्रीष्टवर्षे एव अभौतिक सांस्कृतिक महासन्धेः पक्षपाती आसीत् इत्यतः महासन्धिनां प्रावधानानि क्रियान्वयने आनेतुं विधेयकस्य आवश्यकता अस्ति इति उक्तवन्तः। एवमेव उपवेश्य वैकल्पिक विकास वित्त परिचालन विधेयकस्य विषये प्रतिनिधिसभातः प्राप्त सन्देश प्रस्तुत आसीत्। तत्पूर्वं राष्ट्रियसभाया उपवेश्य सांसदाः औषधालयेषु अर्बुद रोगस्य औषधानाम् अभावोऽस्ति इत्यत्र सर्वकारस्य ध्यानाकर्षणं विधाय अत्यावश्यकौषधानाम् अभावं रोद्धुं प्रभावपूर्ण कार्यं करणीयम् इत्युक्तवन्तः। उपवेश्य सांसदाः वनौषधीनां पर्यटनस्य च उच्च सम्भावनायुतयोः हुम्ला बाजुरा जनपदयोः सीमवर्ती क्षेत्रेषु दृष्टं सीम सम्बद्धं विवदनं समाधातुम् अनुरोधं विहितवन्तः। अथ च सांसदाः राष्ट्रियसभायाः रिक्तयोः द्वयोः सदस्ययोः पदपूर्तिं विधातुम् आश्रयस्थलेषु स्थितानां भूम्यावासहीनानां समस्यां शीघ्रं समाधातुं च सर्वकारस्य ध्यानाकर्षणं विहितवन्तः। राष्ट्रियसभायाः अपरोपवेशः शिव ज्येष्ठमासस्य त्रयोदशे दिवसे बुधवासरे दिवा सपादैकवादने वस्ता। मधेश प्रदेशस्य मुख्यमन्त्रिणा कृष्णप्रसाद यादवेन पूर्वेद्युः मधेश प्रदेशसभायां विश्वासस्य मतं प्राप्तं वर्तते। मधेश प्रदेशसभायाः ह्यस्तनोपवेशे यादवस्य पक्षे द्वाषष्टिर्मतानि व्यक्तानि सन्ति। मुख्यमन्त्रिणा यादवेन प्रस्तुतस्य विश्वासस्य मत सम्बद्धस्य प्रस्तावस्य विपक्षे षट्त्रिंशता प्रदेशसभा सदस्यैः मतानि व्यक्तानि इति मधेश प्रदेशसभाया सभामुख रामाशिष यादव उपवेशे घोषणां विहितवान्। उपवेशे शतस्य प्रदेशसभा सदस्यानाम् उपस्थितिरासीत्। नेपाली कांग्रेस दलस्य प्रदेशसभा पतये च मुख्यमन्त्रिणे कृष्णप्रसाद यादवाय नेपाली कांग्रेस दलस्य द्वाविंशत्या एमाले दलस्य चतुर्विंशत्या नेपाली कम्युनिष्ट दलस्य पञ्चदशाभिः नेपाल संघीय सर्व समाजवादी दल नेपालस्य एकेन च प्रदेशसभा सदस्यैः विश्वासस्य मतं प्रदत्तम् आसीत्। कास्की जनपद न्यायालयेन राष्ट्रिय स्वतन्त्र दलस्य सभापतिना रवि लामिछाने विधेयन सहितयोः गितेन्द्र बाबु राई इत्यस्य छविलाल जोशिनश्च संघटितापराध सम्पत् शुद्धिकरण सम्बद्धं न्यायिक प्रकरणं प्रत्यावर्तयितुम् आदिष्टं वर्तते। जनपद न्यायाधीशस्य हिमलाल बेलवासे इत्यस्य न्यायपीठेन सहकारी वित्त वञ्चन सम्बद्धम् आरोपम् यथावत् संस्थाप्य अन्याभियोगस्य निरसनत्वेन न्यायिक प्रकरणे संशोधनाय आदिष्टमस्ति इति कास्की जनपद न्यायालयस्य श्रेष्ठदार पदीयः राजन खनालः असूचयत। खनालस्य अनुसारेण जनपद सर्वकारीयाधिवक्तृ कार्यालयेन प्रस्तुतं निवेदनम् आदृत्य प्रदत्ते आदेशे लामिछाने विधेयन सहितान् अन्यान् जनान् प्रतिवादिनः निश्चित्य आरोपितः संघटितापराधेन सम्पत् शुद्धिकरणेन राष्ट्रकोषेण च सम्बद्धः अभियोगः संशोधितो भविष्यति इति न्यायालयेन आदिष्टम् वर्तते। संविधान संशोधनाय विमर्शन पत्रम् निर्मातुम् निर्मितेन कार्यदलेन नागरिकैः सह परामर्शनम् याचितम् वर्तते। संविधान संशोधन प्रक्रियायां सर्वेषां नागरिकाणां सहभागिताम् सुनिश्चेतुम् सप्तानाम् दिवसानाम् अभ्यन्तरे लिखितरूपेण परामर्शनम् याचितमस्ति। प्रधानमन्त्रिणः बालेन्द्र शाहस्य राजनीतिक परामर्शदातुः असीम शाहस्य संयोजकत्वे संघटितेन कार्यदलेन विभिन्नेभ्यः राजनीतिक दलेभ्यः लिखितरूपेण परामर्शनं याचितमस्ति। कार्यदलेन विभिन्नेष् समयेष् संविधानविद्भिः विधिविद्भिः वरिष्ठाधिवक्तृभिः पूर्व प्रशासकैः पूर्व कौटनीतिकैः संचारकर्मिभिः राजनीतिकजनैः सहापि विमृश्य परामर्शनं संकलितमस्तीति असूचयत्। महोत्तरी जनपदे जले निमज्य चतस्रो बालिकाः मृताः वर्तन्ते। महोत्तरी जनपदस्य मनराशिस्वा नगरपालिकायाः सप्तमवडा क्षेत्रस्य सरपल्लो स्थाने तिस्रः बालिका नद्यां निमज्य मृताः वर्तन्ते। मृतासु वीरेन्द्र भण्डारिणः पुत्र्यौ त्रयोदश वर्षीया, स्नेहा षड्वर्षीया, शिवानी च, अजीजनदाफ इत्यस्य पुत्री अफसाना खातुन च वर्तन्ते। सरपल्लो स्थाने विद्यमानयोः जंगा अंकुशी नद्योः संगमस्थले स्नानस्य क्रमे एताः बालिकाः मृताः इति प्रेरणा ज्ञापितं वर्तते। एवमेव गौशाला नगरपालिकायाः चतुर्थेवडा क्षेत्रे रजखोर ग्रामस्य नरेश महतो इत्यस्य पुत्री दीपिका कुमारी च गृहस्य समीपे विद्यमाने गर्ते निमज्य मृता इति प्रेरणा ज्ञापितम् अस्ति। सर्वकारेण बकरीद पर्वणः अवसरे ज्येष्ठमासस्य चतुर्दशे दिवसे सार्वजनिकावकाशस्य प्रदानाय निर्णीतं वर्तते। गृहमन्त्रालयेन ह्यो विज्ञप्तिं प्रकाश्य मुस्लिमायोगात् प्राप्तायाः सूचनायाः अनुसारेण अस्यैव ज्येष्ठमासस्य चतुर्दशे दिवसे बृहस्पतिवासरे बकर ईद पर्व वर्तते इत्यतः अस्मिन् दिने सार्वजनिकावकाशस्य प्रदानाय निर्णीतमस्तीति सूचितं वर्तते। सभामुख डोलप्रसाद अरियालः निगदति देशस्य आवश्यकतायाः भविष्यस्य समाह्वयानां च सम्बोधनत्वेन विधेयक निर्माणं विधातव्यम्। पूर्व सांसद मञ्चेन पूर्वे द्योः सिंहप्रासादे आयोजिते कार्यक्रमे सभामुख अरियालः प्राचीनानाम् असान्दर्भिकानां च विधीनां संशोधनं निरस्तीकरणं च कृत्वा अद्यावधिक विधानस्य मुख्यदायित्वं सांसदानाम् अस्तीति प्रत्यपादयत्। तदवसरे सभामुख अरियालः विधीनां निर्माणस्य समये दृष्टान् विरोधाभासान् व्यावहारिकीं न्यूनतां च अपसारयितुम् अनुभवी जनैः कार्यं कर्तुम् आतुरया वर्तमान युवसन्तत्या प्रविधौ विज्ञया नूतन सन्तत्या च मिलित्वा अग्रे प्रवर्ध्य जनतायाः आकांक्षायाः अनुसारेण देशः निर्मातुं शक्यते इति विचारं व्यक्तवान्। नेपाली कांग्रेस दलस्य सभापति गगन कुमार थापा संविधान संशोधनस्य विषय गभीरो स्थिति चर्चयन् परिपक्वम् निर्णयम् कर्तुम् अनुरोधि। यः सुनसरी जनपदस्य लौकही स्थाने आयोजिताम् सभाम् सम्बोधयन् सभापति थापा संविधानस्य संशोधनाय भूम्यावासहीनानाम् जनानाम् व्यवस्थापनाय च सर्वकारेण गभीरेण भाव्यमिति अवोचत् इति समाचाराः।